इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य नवदेहल्याः कर्तव्यपथस्य कर्तव्यभवनत्रि इत्यस्य उद्घाटनं विधास्यते। अवसरेऽस्मिन् सः सार्वजनिककार्यक्रममपि सम्बोधयिष्यति। कर्तव्यभवनं तृतीयं सेंट्रल विस्टा इत्यस्य विस्तृतपरिवर्तनस्य भागः अस्ति। प्रशासनिकप्रक्रियां सुव्यवस्थितं कर्तुं शासनं समर्थयितुञ्च उद्युक्तेषु कतिपयेषु आगामिषु सामान्यकेन्द्रीयसचिवालयमिदं भविष्यति, यस्य विस्तारः द्वयोः आधारयोः सप्तस्तरेषु च भविष्यति। अत्र गृह विदेशकार्य ग्रामीणाभिवृद्धि पेट्रोलियम अथ प्राकृतिकवायु इत्यादयः प्रमुखाः मन्त्रालयाः प्रधानवैज्ञानिकपरामर्शकादयश्च भविष्यन्ति। रेलमन्त्रिणा अश्विनी वैष्णवेन कर्णाटकस्य बेंगलुरुनगरस्य नवदेहलीनगरे इनोवेशन पार्क इत्यस्य उद्घाटनसमारोहे गतिशक्ति विश्वविद्यालयः तथा SAP Labs India Innovations Park इत्येताभ्याम् MOU इत्येतयोः हस्ताक्षरं कृतम्। ह्यः अस्मिन् कार्यक्रमे मुख्यप्रभाषणं कुर्वन् इलेक्ट्रॉनिक्स अथ सूचना प्रौद्योगिकी मन्त्री अश्विनी वैष्णवः अवदत् यत् SAP Labs इण्डिया इनोवेशन्स् पार्क इति भारतीय विकासगाथां समयोचितं निवेशम् अस्ति इति। नियन्त्रणरेखायां युद्धविरामस्य उल्लङ्घनं न अभवत् इति भारतीय सेनया स्पष्टीकृतम्। पूंछक्षेत्रे उल्लङ्घनतायाः विषये प्रसारमाध्यमानां प्रतिवेदनायाः अनन्तरम् एतत् स्पष्टीकरणम् अभवत्। केन्द्रीय सहकारिता मन्त्री अमितशाहः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सहकारिता मन्त्रालयः सहकारिता संस्थानां जीवन्त सफल व्यापार एककेषु परिवर्तनाय प्रतिबद्धः अस्ति इति। सः अवदत् यत् देशे पञ्च वर्षेषु 2,00,000 बहुद्देशीय सहकार संस्थानां स्थापनायाः महत्वाकांक्षायाः लक्ष्यस्य दृष्ट्या अद्यावधि 35,000+ नूतन सहकार संस्थाः निर्मिताः सन्ति। उत्तराखण्ड राज्यस्य उत्तरकाशीमण्डले हर्षिल क्षेत्रस्य धरालीग्रामे ह्यः अपराह्णे मेघस्फोटात् खीरगंगा नद्याः आकस्मिक जलप्लावनेन व्यापकं विनाशम् अभवत्। मण्डल आपत्कालीन परिचालन केन्द्रानुसारं धराली विपणि क्षेत्रे महता जलप्रहारेण भवनानां यात्रिस्थानानां आपणानां च महती क्षतिः अभवत्। सेना राष्ट्रिय विपत् प्रतिक्रियाबलं राज्य विपत् प्रतिक्रियाबलं मण्डलं प्रशासनम् अन्य च सम्बद्ध दलानि च सहायोद्धार कार्येषु सक्रियतया संलग्नानि सन्ति। भारत फिलीपींस देशौ द्विपाक्षिक सहयोगं सामरिक सहभागित्व उन्नतीकर्तुं सहमतौ स्तः। अद्य नवदेहलीनगरे प्रधानमन्त्रिणा नरेन्द्रमोदिना सह फिलीपींस देशस्य राष्ट्रपतिना फर्निण्डा आर मार्कोस जूनियर इत्यनेन सह द्विपाक्षिक वार्तायाम् अयं निर्णयः कृतः।
आज मैंने और राष्ट्रपति जी ने आपसी सहयोग, क्षेत्रीय मुद्दों और अंतर्राष्ट्रीय परिस्थितियों पर विस्तार से बातचीत की। ये प्रसन्नता का विषय है कि आज हमने अपने संबंधों को स्ट्रेटेजिक पार्टनरशिप का दर्जा देने का निर्णय लिया है। इस पार्टनरशिप के पोटेंशियल को परिणामों में परिवर्तित करने के लिए एक व्यापक एक्शन प्लान भी बनाया गया।
राष्ट्रपतिः द्रौपदी मुर्मुः अवदत् यत् भारत फिलीपींस सहभागित्वं न केवलं उभय देशानां जनानां कृते लाभप्रदम् अस्ति, अपितु अस्मिन् क्षेत्रे शान्तेः, स्थिरतायाः, समृद्धेः च आधारः अस्ति इति। फिलीपींस देशस्य राष्ट्रपतिः फर्डिनाण्ड रोमुल्डेज मार्कोस जूनियर वर्यस्य प्रथम भारत राज्ययात्रायाः स्वागतं कुर्वन् राष्ट्रपतिः मुर्मुवर्य अवदत् यत् द्वयोः देशयोः मध्ये विस्तृत सहकारः, निरन्तर उच्चस्तरीय सम्बन्धम्, समृद्ध व्यापार वाणिज्यम्, दृढ रक्षा सुरक्षा सहकारम्, सागरीय क्षेत्रे अथ विकास सहभागितायाञ्च अन्तर्भवतीति। चेस् क्रीडायां चेन्नाल ग्रैंड मास्टर प्रतियोगितायाः तृतीय संस्करणम् अद्य चेन्नई नगरे आरभ्यते। प्रतियोगितायां द्वे चक्रे स्तः, ये विभागद्वये विभक्तौ स्तः, द मास्टर्स द चैलेंजर्स इति। वार्ताः।